सर्वेभ्यो नमस्कारः। सिद्धान्तकौमुद्याः हलन्तपुल्लिङ्गप्रकरणे दशमः पाठः, सेप्टेम्बर् मासस्य एकोनविंशः दिनाङ्कः। येन अक्षरसमां नायमधिगं महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। भाष्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मे त्रयम् we've been carrying on the Siddhanta Kaumudi without that adhyayi for quite a long time now. And it is rather like having a very poor foundation. Obviously by now you all know Kimartham Siddhanta Kaumudi Arabha Thava Siddhanta Kaumudi Aha Sutra Krame Kaha Visheshaha Iti Etavati Gyatam Syat. Siddhanta Kaumudi is a Prakriya oriented Grantha. And Dikshita has shuffled the sutras, the sutra prakriya. It works quite well till we finish the Navapada Prakaranam because it is all a prakriya bhaga. Till the end of Halanta Rapumsa Kalinga Prakaranam, which will be soon, there is almost no relation between the krama of Ashtadhyayi and the krama of Kaumudi. And we may not even miss Ashtadhyayi because well, we are used to the Prakriya way of looking at it. But once we finish this and get into the next part, whatever comes next, whether it is Sri Pratyaya Prakaranam, Karaka Prakaranam, Samasa Prakaranam, Saddhita Prakaranam, if you go and look at the sutras in all those Prakaranas, you see that Dikshita has not made any change to the Ashtadhyayi Krama. Because it is the Ashtadhyayi Krama which makes the most sense in all those parts. Sri Pratyaha, if you have to know Sri Pratyayas without any confusion, there is no other way other than knowing the Ashtadhyayi order. Ashtadhyayaha Kramena Jnayate Sedeva, Sri Pratyaha Jnatum Shakyante. Any other Krama will just confuse you, and if you do not know Ashtadhyayi, it is bound to confuse you. Same holds good with Karaka. Karaka Sutrani Santi, Vibhakti Sutrani Santi. Ashtadhyayam Dvedha, if you say, Vistra Santi. किन्तु तेषां सूत्राणां केन क्रमेण यदि ज्ञानं भवति तदैव कारकप्रकरणस्य सम्यक् ज्ञानं प्राप्तुं शक्नुमः। तथैव समासप्रकरणे तथैव सद्धितप्रकरणे विशेषतः। सो वन्स् द मेजर् शफलिङ्ग् आफ् सूत्रास् इन् कौमुदी हेस् बीन् इन् द फस्ट् हाफ् दट् इस् टिल् द एण्ड् आफ् नवपदप्रकरणम् अण्ड् अगेन् इन् सिङ्गन्तप्रकरणम्। अदर् देन् दीस् in all other cases, Dikshita follows the Krama of Ashtadhyayi. And so, once we reach there, we will really realize the handicap of not knowing the Krama of Ashtadhyayi. So, Ashtadha Asmahi, Sri Pratyaya Prakarana Se, Ashtadhyayaha Parayanam Api Arabhavyam Iti Maya Chinchitam. But rather than starting off with Sri Pratyaya Prakarana, I thought it is better to start with say, the first Pada. अष्टाध्यायाः प्रथमपादे यानि सूत्राणि सन्ति तानि बहुधा परिचितानि, दे आर मोस्टली सम्यक् सूत्रास् विच् वी आर आलरेडी फेमिलियर् वित्. सो यू केन् स्टार्ट् आफ् वित् फस्ट् पाद आफ् अष्टाध्यायी अण्ड् स्पेण्ड् से 10 मिनिट्स् इन् एव्रि क्लास् टु अष्टाध्यायी इन् टु अपारायण टु चेण्टिङ्ग् द सूत्रास् आफ् अष्टाध्यायी. It serves of course two purposes. One is to actually know the Uchcharana properly. And second, to know the Krama of Sutras as in Ashtadhyayi. It need not take any special effort for by hearting. If you just keep chanting the Sutras, automatically the Krama will be known. So, the way I thought we could do is, every class, I could teach it and one person from any one student can do anucharana, or can repeat it. So, I can correct it. It is not possible to unmute everybody and chant it, I guess. first thing, I would not be able to concentrate on everybody, and I'm sure it will also not be good for the audio. So we can do it by turns, where each person gets a chance one day and can repeat what I teach. You can do, say, one part of it for 2 days. Like, if you are starting with the Sahasrapada, the first 40 sutras, let's take that as a set. And we can do it, say, for a month. Every day or every class, we can do it for 10 minutes. I'll teach it and somebody will repeat it. The others, of course, you will have to repeat it, but I will not be able to hear it. So, by the end of it, if we do it 5 or 6 times, you should be able to read the sutras with quite some fluency. And then, it is up to you. You have to do the Parayanam, Sataha, Kantha, Pataha, Chetat, Bhavatam Hatra. It is left to you. Whether you want to chant it daily or get it done, whatever is left. But at least speaking of it is my part, and I am feeling guilty that I have not been concentrating on a study. So, that I think should work. If you have any other ideas on how we could do it, you could share it now. I mean, if we can do it in a better way, or is there something else we can do? If not, we can... But I assume everybody is... So, we can then tell me something. Oh, certainly, that you can learn, and I can record it separately, and the same suggestion has been given by Priya. That can be done, certainly. You can have a first part of Ashtadhyayi, which for listening you can have it. But you should also practice in class. Yes, and I can correct, which is very important. That thing I will do. I mean, I'll record it and give it as a separate file, which you can listen and practice anytime. That will be done. Any other suggestions? If not, anybody who wants to volunteer for the first class? Okay, Hema has something to say. Yes, that could be done. I mean, I'll see how exactly we can do the recording and make it more this. And there's a question of yes, can we send you an audio recording once we've reached some fluency? Certainly. And if you want feedback on your vicharana, like once we do a few practice classes, if you send me an audio, I can listen and let you know. Certainly can be done. And the recording format on how to do it, I'll look at it and I'll do it that way. Okay, so I think, I was asking for volunteers for today. For today's Anutsarana. I mean, it will come by turn. You're not doing, all adhyayas as we go on. So, and I'm also not concerned about actually finishing the 8 adhyayas. I mean, Shilagopanji says it might take a long time to finish the 8 adhyayas. If we clarify, we are not going in the Ashtadhyayi Krama. We will not take the first chapter and go on till the 8th. Once we finish the first pada, by then we'll have reached the Sri Pratyaya Prakaranam. So we'll take there are some 80 sutras which are referring to Sri Pratyaya Prakaranam. So that the Kaumudi part of it and the Ashtadhyayi part could go together. Same we'll do with Taraka Prakaranam and Samasa Tadhyaka, all those will go according to this. So based on where we are, we can see about Ashtadhyayi. It is not I am concentrating on completing the Ashtadhyayi aspect. But whatever is relevant to what we are studying in the Kaumudhar, we will be having. So once we finish, till Sadhitas, it can go hand in hand, Kaumudhi and Ashtadhyayi. So again, in Sinansas, the Krama of Kaumudhi is different. So once we reach there, we can see what we have left in Ashtadhyayi and go back to those sutras or something. We'll get an idea by then on how we have done it. Okay, alright, so we can start with Hemaji has volunteered, so we'll start with from next class. I don't know if you have it now, you can have a copy of Ashtadhyayi with you if you don't have, just for your reference. Actually it will be better even if you don't have it, so you can just listen to carefully and repeat. So for your reference, you can have a copy of Ashtadhyayi with you. There are lots of online copies also, so you can just have those too. So I think I can show you a copy now. I am not. There is some file with the sutras are there. Okay, so this file, the C column of the Excel file has the sutras. I hope there is no... just a second. Hema Bhagini, Siddha. So whenever I sutra, please repeat it twice. Okay. Okay. So Ashtadhyayi. प्रथमोऽध्यायः प्रथमोऽध्यायः इति प्रथमः पादः वृद्धिरादैश्च sorry, yes, Ravi Chandran, he made a very valid point. It should actually start with Maheshwara Sutra. We start with Maheshwara Sutras and then go to the actual sutras. I ouch. Hayavarat. Lann. Yamangananam. Jabhai. Jhataraha Mahapranaha. Jabhai. Ghadhadhash Jabagadadash. Hapachatatatatatav. Hapachatatatatatav. Kapai Shashasar Hal Iti Maheshwarani Sutrani Vriddhiradhanich Adem Gudaha Iko Guna Vriddhi Na Dhatu Lopa Ardha Dhatu Ke Nitya Dibhi Devi Tam Dibhi Devi Tam Halo Nantara Sanyogaha Mukhanasika vachano lunasikaha Tulyasya prayatnam kavarnam Najhalau Idudet Dvivachanam Pradrashyam Adas Omat She Nipata Eka Janang Sambuddhau Shakalyasyetavanarshe Shakalyasyetavanarshe Shakalyasya itau anarshe iti chedaha Shakalyasya itau anarshe Sambuddhau Shakalyasya Repeat Itavanarshe Unyaha Idutau ca saptam yathe Dadha khvalap Dadha Dadha Alpa prana maha prana Gvadap Ghu adap Gvadap in Sanskrit Dadha Gvadap ఆద్యంతవదేకస్మిన్ ఆద్యంతవద్ ఆద్యంతవత్ ఏకస్మిన్ తరప్ రిపీట్ తరప్ సమపౌ ఘహ బహు గణ వసు దతి సంఖ్యా ష్ణాంతాషట్ దతి చ తత్రవతు నిష్ఠా క్తవతు నిష్ఠా క్తవతు బోధ్ క్తవతు నిష్ఠా సర్వాదీని సర్వనామాని విభాషా దిక్సమాసే బహువ్రీహౌ న బహువ్రీహౌ తృతీయా సమాసే ద్వంద్వేచ విభాషా జసి ప్రథమ చరమ తయాల్ పార్థ కతిపయ నిర్మాశ్చ పూర్వ పరావర దక్షిణోత్తర అపరాధరాణి వ్యవస్థాయాం అసంఖ్యాయాం స్వమజ్ఞాతి ధనాఖ్యాయాం అంతరం బహిర్యోగ ఉపసంవ్యానయో ఉపసంవ్యానయో స్వరాది నిపాతం అవ్యయం సద్ధితశ్చ అసర్వ విభక్తిః కృన్మే దంతః స్వాతోసున్ ససునః avyayimha vashta. Ekavadastu. So these 40 sutras we will repeat again for some time, say for a month, and then we will go on to the next 35. There are a total of 75 sutras in the first pada. So in about 2 months we will finish the first pada. 2 or 3 months we will also finish Vedahalanta Prakaranam, hopefully. Sataha Pashyama. Adani Omuli. Nakarantesh Pullingesh Maha. Nakarantaha Pullingaha Makhavan Shabdaha. Sahitaha. Kim Hoti Makhavan Shabde Makhava Bahulam iti sutrena. Vikalpena Tri Adeshaha Vidhiyate. Asya Adeshasya Kimapi Nimittam Nanidrishtam. Ataha Sarvatra Tri Adeshaha Phalati. Tena Tritvapakshe Tri Adeshe Krute Akarantavad Rupani Bhavanti. Maghavat iti Pratipadikam. Bhagavat iti Pratipadikam Yatha Tatha Bhavati. Sarvanavasthanesu Numagamaha Bhavati. Ujidasam Sarvanavasthane Adhatuh iti Sutrena. Tena Maghavan Maghavantau Maghavantaha Maghavantam Maghavantau. Satasparam Maghavataha Maghavata Maghavadhyam Sriyadi. Tritvabhave Tritvadeshaha Nakrutashtyate Maghavan iti Nakarantaha. Rajan Shabdavat Adau Sarvanamasthanesha Rajan Shabdavat Rupani Makhava Makhavanau Makhavanaha Makhavanam Makhavanau Shastrubhatishu Ajadishu Nasthata Bhakamyayam Satyam Shvaiva Makhonam Atadhyate Ityanena Samprasaranam Bhavati. Samprasarane Vakarasya Sthane Ukaradeshe Rulekute Makhonaha Makhona Haladishatu Nalopaha Makhavabhyam Ityadini Rupani. Evam Shvan Shabdaha Nakarantaha Tatrapi Rajan Shabdavat Bhavati. Nakarantaha, so the usual template for any Nakaranta is Rajan. So Shvan also starts like Rajan. Punaha Shastrabhatishu Ajadishu Shvayuva Makhona Matabhyate Iti Samprasarane Shunaha Shuna Shubhyam Shubhihi Ityadina Shva Maghavan Yuvan. Yuvan Shabdasyati Bhasamyayam Shvaiva Makhonama Sadhyate Iti Samprasaranam. Tatra Vakarasya Samprasarane Ukare Yunaha Yuna Iti Bhavati. Na Samprasarane Samprasaranam Iti Vishesasya Sattvat Yakarasya Samprasaranam Na Bhavati. Kevalam Vakarasyeva Samprasaranam Bhavati. Idani Nakaranta Pullingaha Arvan Shabdaha. Arvan iti Ashva Paryayaha. Arva ityukte Ashvaha Yattaha. Arvan Supratyaye Sarvanamasthane Chasam Buddhau Ityanena Upadha Dirghaha. Kalyanina Tulopaha Sataha Nalopaha. So like Rajan iha Varva. Itha Raja Tatha Arva iti Bhavati. Arvan Au iti Sthire. Ashesataya Sutram Asti Atyeva Shabdasya Arvana Prakavanayaha Iti Sutram. Satvari Padani Samti Arvanaha Sr Asau Anayaha. Sr Asau Iti Prasau Iti Bhavati. Prasau Anayaha Iti Avadeshe Prakavanayaha. Arvanaha Sr Arvana Sr. So it is full of Sanji. Arvana Prakavanayaha Iti Sandhau Krate Bhavati. Angasya iti Adhikriyate Nayarahitasya Anayaha Ityasya Ekat Nai Bhinnasya. When it is not part of a Nai Samasa. Nayarahitasya Arvan Ityasya Angasya Sir iti Antadeshaha Syat. Arvan iti Nakarasya Sthane Takaraha Bhavati. Sir ityatra Rakaraha Iti. This is the same thing which we did in Maghava Bahulam. So Maghava Bahulam follows Arvanas Prasavanayaha. So, itaha eva tatra sri iti anuvartate. So, sri iti antadeshaha bhavati, natu tau, asau, nama sukratyaye pare na bhavati. Sukratyaye bhinne sarvatra bhavati. Itte saha.
with cross lum.
Kru itra ratarah ithayakam itsamyakah ugit ukru ite etcetera. Urlam स्वराणाम यत्र इत्थम्य भवति सः उगित् भवति कृतस्य उगित्वात् उगितसाम् सर्वनामस्थाने अधातोः अर्वन् औ इत्यस्ति कृत्वम् क्रियते अर्वत् औ इदानीम् उगितसाम् सर्वनामस्थाने अधातोः इति सूत्रेण नुमागमः भवति तदा अर्व नु नुमागमः मित् मित्वात् अन्तादक अन्त्यादकस्वरः नुमागमः
अतः अनुस्वार करणीयः परसवर्णोपि करणीय एव अर्वा अर्वन्तौ अर्वन्तः सर्वनामस्थानेषु सर्वत्र सु प्रत्ययं विहाय सर्वत्र कृत्वोऽपि भवति नुमागमोऽपि भवति अर्वन्तम् अर्वन्तौ अर्वतः शतः आरभ्य नुमागमः नास्ति नुमागम इस् ओन्ली फोर् सर्वनामस्थान अर्वत् अस् ऋत्वं विसर्गः अर्वतः अर्वता अर्वद्भ्याम् इत्यादि रूपाणि सो फोर् अर्वा फस्ट् थिङ्ग् विच् हेपन्स् इस् सुप्रत्ययं विहाय सर्वासु विभक्तिषु अर्वणः प्रसावनयः इति कृ आदेशः एण्ड् इट् इस् नाट् विकल्प इट्स् अ नित्य आदेश इन् मघवन् शब्द यु हेड् एन् आप्शनल् आदेश सो यु आल्सो हेड् एन् अकारान्त फार्म् आफ़् इट् अर्वन् शब्दस्य विषये तु नित्यम् आदेशः भवति तेन सर्वत्र अर्वा इत्यत्रैव नकारः अर्वन् इत्यस्य नकारान्तं भवति प्रातिपदिकम् अर्वा हे अर्वन् इत्यत्र अन्यत्र सर्वत्र सर्वनामस्थाने परे उदीरतां सर्वनामस्थाने च अधातोः सर्वनामस्थाने अधातोः मिस्टेक् इन् द सूत्र ऐम् सारी इति नुमागमः सत्प्रसतिषु अजादिषु दर् इस् नथिङ्ग् इस् इस् जायिन् प्रकृति प्रत्यय अण्ड् द फार्म् इस् रेडि हलादिषु तु जस्त्वं भवति अर्वद्भ्याम् अर्वद्भिः इत्यादि सप्तमी बहुवचने अर्वत् तु इत्युच्यते सलां जशोन्ते इति जस्त्वं खरिच इति सत्त्वं करणीयम् इवन् दो जायिनिङ्ग् विल् गिव् द फार्म् जस्त्व विल् अप्लै आस् विल् सत्त्व अनयः किम् अर्वणस्तृ असौ अनयः इति उच्यते किमर्थम् इति चेत् अनर्वा यज्ञवत् न अर्वा अनर्वा इति नै तत्पुरुषः अथवा न विद्यते अर्वा यज्ञः इति बहुव्रीहिरपि भवितुम् अर्हति सो ईदर् वे वेन् इट् इस् असोसियेटेड् वित् नै अनर्वन् इति नकारान्तं प्रातिपदिकम् स्तुति राजवद्रूपाणि भवन्ति सर्वनामस्थानेषु अनर्वा अनर्वाणौ अनर्वाणः राजा राजानौ राजानः इति शतः आरभ्य अल्लोपनः इत्यनेन अल्लोपे प्राप्ते न संयोगाद् वमन्तात् वकारान्तसंयोगः अनर्व रेफवकारयोः संयोगः अस्ति ततः परः यः अल् तस्य लोपः न भवति इति निषेधात् अल्लोपो नास्ति अतः यज्वनः इति यथा तथा अनर्वणः अनर्वणा अनर्वभ्याम् अनर्वभिः इत्यादि यज्वन् शब्दवद् रूपाणि भवन्ति नञ् सहितस्य कृत्वं नास्ति नञ् भिन्नस्यैव कृत्वम् It is the active pronunciation of the letter is nya, nahi tatvarsha. It is neither na nor ya. It is a separate letter, so the pronunciation also differs. Actually, the pronunciation, even among scholars, have heard different ones. The way I have been taught is nya. Nyamangalanam and jabhani. Nani. I'll have to clarify this again, but yeah. That is Nyaya is what in Tamil they say. Yeah. That is complete. I mean, Kasadadhanga, getting that Nya and Nya right is always difficult. Even this is something, I mean, the Na part of it is not right. It is not Na with Ya. I mean, it's not a Samyogakshara of say, Sanyasa where you have Na and Ya. This is Nya. The pronunciation is different, so well, I guess you get it by practice and by listening to it. You end up pronouncing it how you listen to it or how your teachers pronounce it. Because I myself used to pronounce it only as Nya, as in Jaya with the Annasika intonation. But then I was taught that it has to be Nya. Okay, so Unga Sakaranta Pullingaha Kathin Shabdaha. Okay, Kathin Margaha Kathin Shabdaha Vishishtani Rupani Bhavanti. So Kathin is this matter, Supratyaya Kratya. There are some four sutras which deal with the same set. Patimathir Bhuksha Mata, Itor Sarvanamasthane, Thon Saha, Bhasyate Lopaha. Satvari Sutrani Santi, Yani, Ethihi, Trithihi, Padaihi Samvardhani. They are related only to these three. Patim, Mathim and Bhukshin, Iti Trini Nakarantani Padani, Etesham Padanam Samvardhanyeva, Satvari Sutrani Santi. Prathamam Sutramasti, Patimathir Bhuksham, आत पदद्वयम् पथिन मथिन मकारस्य लोपः कृतः समासेन लोपः प्रातिपदिकान्तस्य इति न लोपः सो रुभुक्षिन् आम् रुभुक्षाम् इति भवति कथं भवति इति पश्यामः अतिमति रुभुक्षाम् आत् आकारः अन्तादेशः भवति रावणडुहः इति सूत्रात् सौ इति अनुवर्तते येषाम् आकारः अन्तादेशः स्यात् सौ परे सुप्रत्यये परे मकारस्य स्थाने अन्त्यस्य मकारस्य स्थाने आकारादेशो भवति. इदानीं प्रश्नः आकारः अस्ति मकारस्य स्थाने आकारः करणीयः अन्तरतम्यात् स्थानेऽन्तरतमः इति न्यायात् अनुवासिकः आकारः आदेशः भवति वा इति प्रश्नः. रिप्लेसिङ्ग् अन् मकार वित् अन् आकार, केन् यू यूस् अन् अनुनासिक आकार अस् द रिप्लेस्मेण्ट् सिन्स् मकार इस् अनुनासिक and akara has an anunasika prabheda. So atra api anunasika akara adesho bhavati va. Aat iti prashneshena shuddhayaha eva yatreha vidhanat na anunasika iti dikshira iti dikshira. Aat iti atra prashnesha kheyate tavarana dirghena aat atthate akara rupaha akara nama shuddha akara अननुनासिकः आकारः इति शुद्धायाः एव व्यक्तेः विधानात् व्यक्तेः नाम आकार व्यक्तेः विधानात् नकारस्य स्थाने यद्यप्यादेशः तथापि अनुनासिकः न भवति अनुनासिकः भवति अनेन सूत्रेण इतोत् सर्वनामस्थाने इति अग्रिमं सूत्रम् इतः अत् सर्वनामस्थाने इकारस्य स्थाने अकारः भवति सर्वनामस्थाने पथि मथिर्भुक्षाम् इति अनुवर्तते एतेषां त्रयाणां यः इकारः पथिन् मथिन् भुभुक्षिन् सर्वत्र उपधायाम् इकारः श्रूयते तस्य इकारस्य स्थाने अकारः आदेशो भवति सर्वनामस्थाने परे पथ्यादेः इकारस्य अकारस्यात् सर्वनामस्थाने परे इति सूत्रार्थः पथि आ इत्यस्य इकारस्य अकारे कृते पथ आ भवति इकारस्य अकारः स्थोन्थः इति अग्रिमं सूत्रम् अत्रापि थः न्थः थः इति षष्ठी थकारस्य स्थाने न्थः नृथ इति आदेशो भवति थकारस्य इस् जोयिन्ड् बै न् अण्ड् थ संयोग आफ् मकार अण्ड् थकार पुनः अत्रापि पथिमथिर्भुक्षाम् इत्यस्य अनुवृत्तिरस्ति पथिमथोः थस्य न्थादेशः स्यात् सर्वनामस्थाने परे सो त्रिभुक्षिन् डस् नाट् हेव् अ थकार So, even though you have Pathimathir Bhukshama as anuvruti, this sutra will apply only to Pathin and Mathin. So, Thakara hasi, Tasya Thakara hasya, Untha, iti adeshaha bhavati. Patha asu ityasi, Pantha asu iti bhavati, Thonthaha ityanena. So, Trini sutrani drashtani, Pathimathir Bhukshama at, Itot Sarvanamasthane, Thonthaha. सुप्रत्यये परे सर्वेषां सूत्राणां प्रवृत्तिरस्ति चलचेदप्रक्रियागे पथिन् सुप्रत्ययः पथिमथे वृक्षाम् आट् इत्यनेन अन्तादेशः आकारः इतोत्सर्वनामस्थाने इति इकारस्य अकारः थोन्थः इति थकारस्य न्थ आदेशः यः पन्थ आ रक्तवर्णे दीर्घः इत्यनेन सवर्णदीर्घे कृते पन्थात् सर्वत्वं विसर्गः पन्थाः कठिन् शब्दस्य प्रथमैकवचने रूपं भवति पन्थाः मार्गः इत्यर्थः पन्थाः इत्यस्य पुनः पथिन् औ इत्यस्य अत्र आकारादेशः न भवति आत् पथिमथिरभुक्षाम् आत् वास् स्पेसिफैड् ओन्ली फोर् टु सो दट् सूत्र विल् नाट् अप्लै अन्यत् सूत्रद्वयम् इतोत् सर्वनामस्थाने इत्यनेन इकारस्य अकारः पथिन् इत्यासीत् पथन् औ इति भवति स्थोन्थः इत्यपि भवति पन्थन् औ नकारान्तत्वात् सर्वनामस्थाने च असम्बुद्धौ इत्यनेन उपधादीर्घः क्रियते पन्थान् औ पन्थानौ इति भवति पन्थाः पन्थानौ पन्थानः सो सुप्रत्यये आत्वम् अत्वम् इन्थादेशः त्रीणि कार्याणि अन्यत्र सर्वनामस्थानेषु अत्वम् इन्थादेशः उपधादीर्घः पुनः त्रीणि कार्याणि पन्थाः पन्थानौ पन्थानः पन्थानं पन्थानौ कठिन् अस् इत्यस्ति सो नन् आफ् द प्रीवियस् सूत्र अप्लै प्रिया अकस्सवर्णे दीर्घः और् अतो गुणे इन्द्रुयिन् पन्थ प्लस् आ अतो गुणे इति कदा भवति ह्रस्वादकारात् गुणे परतः गुणः नाम पुनः ह्रस्वाकारः एकारः ओकारो वा ओन्लि देन् इट् इस् फालोड् बै ह्रस्वाकार or A or O, you have a possibility of Atogune. Since it is Dirghakara, we cannot do atomone. It has to be turned away. How? Sorry, I could not make out the question. Prathamayo purvasavarnaha. Kada bhavati prathamayo purvasavarnaha. Akaha prathama dvitiyayoho achi. So when the following ach belongs to prathama dvitiya vibhakti, then we can do prathamayo purvasavarnaha. Okay? So if you notice here, akaraha, it belongs to the pratipadika itself. Because it's an akarasya sthane akaraha adesha. Vibhakti hai akaraha nasti. Vibhakti is only two. So, prathama dvitiya yoho achi pare iti uchyate. Ayam achi pratipadikasya akaraha natu vibhakti hai. So, we cannot apply prathama yoho purvasavarnaha also. Pathin shastra. Bhasya terlopaha iti agrimam sutram srini padani sandhi bhasya tehe lopaha pratimadhir bhuksham aat iti sutrat punaha pratimadhir bhuksham iti anuvartate bhasamyatasya pachyadehe tehe lopaha syat yada pratimadhir bhuksham bhasamya vidyate tada ti samyatasya sarvatra in ityasya ti samya bhavati asantyaditi ityanena in ityasya lopaha bhavati iti sutrartha pathin as sri inaha lope path as rasve visarge pathaha panthanam panthanam pathaha evam patha sarvatra ajadishu pratyayeshu bhasamya bhavati ti lopascha patha Pathin dhyam idhasthete nalopa prajivarikantasya. Pathi dhyam pathi dhihi. Pathe pathi dhyam pathi dhyaha. Ityadi ni rupan. So if you look at the form. So sarvatra sarvanamasthaneshu. Itot sarvanamasthane iti ikarasya akaraha. Thon thaha ityanena sakarasya intha. Evam upasadirgho bhi asti. Upasadirgha the usual sutra, Saranavasthane sa sambuddhau. Supratyaye, pachinase bhukshamat iti akarante shaha, akarade shaha, untha, sarvani bhavanti. So in both supratyaye, sambodhane ubhayatra, tathaiva bhavati. Shastrabhadishu ajadishu. So wherever you have bhasamya, bhasyater lopaha ityanena, in nityasya lopaha pathe pathaha pathoho patham pathi pathoho shastra pratishu malopaha evam manthaha rubhukshaha iti uttam Mathin shamdaha, manthadandaha, the stick or something which is used for churning is called manthadanda. Like the Mandara Parvata itself it was used as manthadanda for samudra mathanam. So for normal if you are churning vata milk you will have some stick for it that is called manthaha. So mathin will be exactly like pathin. There is nothing, there is no karya which is different. Purnataya pathi shabdavata. Rubhukshin shabdaha indravati. Rubhukshaha ityasya indraha ityasaha. So, thakara bhavate thonthaha iti nabhavati. Anyani sutrani. Prathimati rubhuksham at iti atvam bhavati. Itot saranavasthane iti atvam bhavati. So, rubhukshaha, rubhukshanau, rubhukshanaha. Rubhukshanam, rubhukshanau. Shesham pathin shabdavata. Shilo popi bhavati. So, rubhukshaha, rubhuksha, rubhukshibhyam, rubhukshibhihi. Ityadi rita rupani bhavati. So, agre pathin shabdasya, sri lingye, napam takalingye, kim bhavati iti vicharaha asti. Adhyatra Harayamaha. So we'll see the other form next class, tomorrow. Krishna Chandiva. Yes. Sorry. Bhastya itrasikila. So bhakti. Bhasamya itrasi tatra bhavati. Ajadi pratyaya pareva bhasamya bhavati. Yeti bhamma iti sutrayana. Only these three sabdas. Kathin machin dhukshin. Itesham prayana meva. No. Not for others. Sorry, Chandanji, you have a question? Saranam grahanam na. Prashlesaha navashyakaha. So, he says, bhajyamanena. Anadukhavayasya chakrasya. Whenever it is something which is being mandated vidhanam bhavati, tada savarnanam grahanam na bhavati. So, just by saying a, it means only a. You cannot actually take, there is not even a possibility of taking an ananasika akara there. So, you don't need a prashlesha to prevent that ananasika. That's what he says. That's what Balamana Namakara gives us siddhanta. It is prashleshasya avashyakata nasti, because it is bhavyamanena savarnanam grahanam na iti paribhashaya. Because it is bhavyamana, a is being mandated. Yad uchcharyate tasyaiva adeshaha bhavati. Ananasika adeshasya sambhavayeva nasti yataha tan nivaranam navashyakam. Ityeva uchyate. Dikshitan says we have a prashlesha. Sorry, I didn't understand. Vede, there is an akara which the dirgha will not apply. So there are a few cases in the Vedas where the dirgha will not apply. So it is yataha. The question is, always when we do itottara namasthane, it is followed by dirgha. Saranamasthane cha sambudhvate and dirgha ha bhavati. So to prevent that step, Payani could have directly said akara ha adesha bhavati. So in one step, we could have covered it. So there are cases where the akara is heard, where itottara namasthane applies and the dirgha does not apply. So there are few forms like that in mostly in the Vedas. So for that he says Ati. Okay. And there is a general question on Ashtadhyayi. So on what basis are the Vartikas selected for inclusion? Yeah, there are a few sutra parts, Ashtadhyayi sutra part, Vartika namapi bhavati. So it depends. I mean, there are some Vartikas which Vartikas original sankhya is lots. Vashyakara has negated some, and different scholars have accepted few Vartikas, negated some. So there is a difference in what Vartikas are included and what are not. And all Vartikas are not included. So only some main Vartikas. So there is also a matabheda on what should be included and what is not. And no, don't go into Vartikas while doing Sutra Patha. Sutrapatha memorize the sutra separately. Swastikas can come later. Sutrapatha sutra tayayava. Sananiyaha. Stick to the sutras initially. Swastikas anantaram nyatum shakyanta. ஹேராட்சரசமோம் நாயம் அதிகம் மகேஸ்வராத் ரத்னம் வியாக்கரணம் உக்தம் தஸ்மை பாணினியே நமஹ. வாக்கியகாரம் வரருச்சிம் பாஷ்யகாரம் பதஞ்சலிம் பாணினிம் சூத்ரகாரம் ச பிரணதோஸ்மி முனித்ரயம். முனித்ரயம் நமஸ்கிருத்ய ததுக்தி பரிபாவித வையாகரண சித்தாந்த கௌமுதீயம் திருஷ்யதே.